अरविन्दाक्षं लोकेशं अरविन्दनाभप्रियं सुजातं च कञ्जातास्यं भजेहं भक्तपालकम् अरुणोदयसङ्काशम् आनन्दं तु निरञ्जनम् शबरीविहारं नित्यं भजेहं भवतारकम् शिवप्रदं च विघ्नघ्नं भक्तजनवशङ्करम् विष्णुशङ्करयोः पुत्रं भजेहं लोकनायकम् गणेश्वरसहक्रीडं पन्दळवंशपावनम् मृगेन्द्रक्षीरहर्तारं भजेहं शिष्टरक्षकम् नागगन्धर्वसंसेव्यं सङ्गीतप्रियमानसम् मैनाकगिरिसञ्चारम् भजेहं मुक्तिदायकम् इन्द्रपूज्यं महावीरं महिषी दैत्यमर्दनं बालरूपं शास्तारं भजेहं दुष्टशिक्षकम् मणिमालाज्वलत्कण्ठं मायामानुषविग्रहं पूर्णपुष्कळाम्भोपेतं भजेहं जयकारकम् मकरज्योतिस्वरूपम् ब्रह्मचारिणमुत्तमम् तालकण्ठपुरावासम् भजेहं शोकनाशकम् इमं स्तवं महापुण्यं श्रद्धाभक्तिसमन्वितः पठेद्यः शृणुयान्नित्यम् प्राप्नुयात् शुभं सुखम्।